इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। माइक्रोसॉफ्ट सॉफ्टवेयर इत्यस्मिन् तन्त्रांशे विकृति कारणात् विश्वस्मिन् विश्वे लक्षाधिकाः जनाः प्रभाविताः समभवन्। अनेन कारणेन उद्योग कार्येषु बैंकिंग सेवासु च अन्ताराष्ट्रिय विमान सेवासु च बाधाः समुत्पन्नाः। भारते इंडिगो, अकासा, स्पाइसजेट इत्येतेषां कार्याणि अशेषे हि देशे प्रभावितानि। इयं समस्या वस्तुतः अमेरिकास्ते साइबर सुरक्षा प्रदाता क्राउड स्ट्राइक इत्यनेन संबंधिता अस्ति। केन्द्रीय मन्त्रिणा अश्विनी वैष्णवेन निगदितम् यत् समस्यायाः अभिज्ञानम् अन्वेषितम्, समाधानाय च नवीकरणम् अपि संजातम्। तेनोक्तं यत् राष्ट्रिय सूचना केन्द्रस्य अन्तर्जालं नैव प्रभावि जातम्। बांग्लादेशे आरक्षण सम्बद्ध विरोध प्रदर्शने मृतकानां संख्या समेध्य 41 यावत् समभवत्। वार्ताहरानुसारी प्राशासनिक वृत्त्यवसरेषु आरक्षण प्रणाल्यां परिष्करण पराम् अभियाचनामालक्ष्य छात्रैः विरोध प्रदर्शनं समाचरितम् आसीत्। अत्रान्तरे ढाकास्थितेन भारतीयोच्चायोगेन भारतीय नागरिकाः गृहे एव अवस्थातुं परामृष्टाः। विदेशमन्त्रालयेन सामाजिकान्तर्जालमाध्यमेन बांग्लादेशे स्थिताः भारतीय नागरिकाः भारतीयोच्चायोगस्य निर्देशाः अनुकर्तुं सम्प्रार्थिताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः ह्यः सशस्त्र बलानां भारतीय तट रक्षक बलानां सेवारतेभ्यः सेवानिवृत्त कर्मिभ्यश्च 94 विशिष्ट सेवा पुरस्कारं प्रदत्तवती। अनया 31 परम विशिष्ट सेवा पदकानि, 4 उत्तम युद्ध सेवा पदकानि, 57 अतिविशिष्ट सेवा पदकानि प्रदत्तानि। राष्ट्रपतिना राष्ट्रपति भवने रक्षालंकरण समारोहस्य द्वितीये चरणे एते पुरस्काराः प्रदत्ताः। समारोहेस्मिन् उपराष्ट्रपतिः जगदीप धनखड़ः, रक्षामंत्री राजनाथ सिंहः, विदेशमंत्री डॉ एस जयशंकरः, दिल्ल्याः च उपराज्यपालः विनय कुमार सक्सेना उपस्थिताः आसन्। उपराष्ट्रपतिः जगदीप धनखड़ः उक्तवान् यत् जलवायु परिवर्तनम् एकां वैश्विकापत् समस्या वर्तते। असौ प्रोक्तवान् यत् परिवर्तनमिदं निर्धनेभ्यः, जैव विविधताभ्यश्च खाद्य सुरक्षाभ्यः संकटम् अस्ति। उपराष्ट्रपतिः ह्यः नवदिल्ल्यां पीएचडी चैम्बर ऑफ कॉमर्स एंड इंडस्ट्री इत्यस्य जैवोर्जा विकसित भारतं प्रति मार्गः इत्यस्मिन् विषये 4th अन्ताराष्ट्रिय जलवायु शिखर सम्मेलनस्य समापन सत्रं सम्बोधितवान्। सर्वकारेण आगामी सप्ताहात् समारप्स्यमाने संसदः प्राविट सत्रे आपत् प्रबन्धन विधौ संशोधनेन सह 6 नूतन विधेयकाः प्रस्तोष्यन्ते। वित्त विधेयकमतिरिच्य सर्वकारेण नागरिकोड्डयन क्षेत्रे व्यापारे सौकर्यार्थं भारतीय वायुयान विधेयकः 24,000,000 सूचीबद्धो कृतः। संसदः प्राविट सत्रं जुलाई मासस्य 22 दिनांकादारभ्य अगस्त मासस्य 12 दिनांकं यावत् प्रचलिष्यति। वित्तमंत्री निर्मला सीतारामन इत्येषा जुलाई मासस्य 23 दिनांके केन्द्रीय आय व्ययकं प्रकाशयिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना मन की बात इत्यस्य कार्यक्रमस्य आगामिनः संस्करणस्य कृते प्राप्तान् सन्देशान् प्रति प्रसन्नता प्रकटिता। महिलानां 20-20 एशिया चषक क्रिकेट विश्व प्रतिस्पर्धायां गतविजेत्रा भारतीय दलेन श्रीलंकायाः दाम्बुलानगरे पाकिस्तान दलं 7 क्रीडकैः पराजितम्। इति वार्ताः।